सर्वेषां स्वागतम् इदानीं वर्गः आरम्भमये सो हू वाण्ट्स् टु आस्क् द ऐम् सारी हू वाण्ट्स् टु चान्ट् द श्लोकास् वन् पर्सन् अस्तु श्रीनिवासमहोदय यु वाण्ट् टु से द श्लोक
भगिनि शल् ऐ
अस्तु भगिनि नाम किम्
सागरी
अस्तु वदतु
ॐ सहना भवतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहैः ॐ शान्ति शान्ति शान्तिः हरि ॐ श्रीगुरुभ्यो नमः हरि ॐ
धन्यवादः भगिनी बहु सुन्दरम् आसीत् श्रीनिवास महोदय यु विल् डू अट् द एण्ड् आफ् द क्लास् अस्तु
नो प्राब्लम् भगिनी
अस्तु अस्तु इदानीं वयं गृहपाठं पश्यामः ततः पूर्वं प्रश्नाः सन्ति वा कुत्र अस्ति इति विषये अस्तु किञ्चित् पुनस्मरणं कुर्मः बालकाः कुत्र सन्ति प्रथमं चित्रं पश्यन्तु तत्र बालकाः कुत्र सन्ति
भगिनि सारि लास्ट् क्लास् वी स्पोक् अ लाट् अबौट् कति नाट् कुत्र लास्ट् क्लास् वास् आल् अबौट् नम्बर् हौ मच्
या इट् वास् बोत् महोदय रैट् कति अण्ड् कुत्र Okay, so all right, so we'll go to Kati first. Astha. Astha, I see a chat. Let me see what that is. Savitri. Astha. Savita. Astha. So we'll go to Kati first. Dhanyavada Mahadeya. Astha. Ka arambam karoti. So the rule is, the niyamaha. अस्ति कति इति प्रश्नः सर्वदा आल्वेस् बहुवचनरूपं भवति बहुवचनरूपे भवति कति बालकाः सन्ति एकः एव अस्ति परन्तु मीन्स् बट् परन्तु प्रश्नः कति बालकाः सन्ति बहुवचनरूपे एव भवन्तु let it only bahuvachana roopa even though we know there is only one evameva yutaka kani santi ekameva asti tathapi kati yutakani santi eva prashnah bhavantu atra api kati yutakani santi bahuni santi astu So can we go over this homework now? Astu. Sharada Bhagini?
Kati Upanetram Santi.
Kati Upanetrani Santi.
Kati Upanetrani Santi.
Ekam Dve Trini Chatvari Pancha Shat. Shat.
Should I say one first and then
vadatu
ekam upanetram asti
samichena
kati upanetrani santi shad upanetrani santi
samichenam bagini astu ketaki bagini so after ketaki Sagari, Anantaram, Gopika, Anantaram, Amba. So you'll get ready. Ketaki, Sagari, Gopika, Amba. Astu. Ketaki, Bhagini, Balika. Ketaki, Bhagini, you may be on mute. All of you will be on mute. अस्तु अस्तु सागरी भगिनी
कति बालिकाः सन्ति
आम्
एका बालिका अस्ति
समीचीन
पञ्च बालिकाः सन्ति
आम् अस्तु समान प्रश्नः द सेम प्रश्नः इज फॉर बोथ समीचीन अस्तु केतकि भगिनी ऐ केन् हार्ड्लि हियर् यु अस्तु वदतु कूपी विषये वदतु कति वाट् इस् द बहुवचनं आफ् कूपी कूप्यः न न न कति कूप्यः सन्ति
भगिनी वी केनाट् हियर् हर् एट् आल्
या इट्स् वेरि 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 साफ्ट् या इट्स् इट्स् ओके ओके या वदतु भगिनि न भगिनि अत्र when you want to count gananam karaniyam chet ekam dve trini chatvari pancha shat prathama dvitiya na prathama dvitiya means first second third fourth like that ekam trini chatvari चत्वारि सो अत्र एल् वन् हेण्ड् औट् मध्ये अस् अत्र न एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव दश ओके सो सो दिस् इस् हौ इट् इस् डन् अस्तु पुनः
हरि ओम् भगिनी नारायणमूर्ति
नारायणमूर्ति गारु वा स्वागतं महोदय कूप्यः सन्ति सो कूपी इति स्त्रीलिङ्गं खलु
ओके
So how will the eka change?
Kupi.
Eka kupi.
Eka kupi santi.
Asti.
Asti, sorry.
Eka kupi asti.
Eka kupi asti. Kati yaha santi.
Kupyaha. Kupyaha.
Kupyaha santi.
Eka,
dvi, trini, chaturi.
न न एकं द्वे त्रीणि चत्वारि पञ्च षट् अस्तु षट्
षट्
षट् कूप्यः सन्ति समीचीनं अस्तु धन्यवादः भगिनि गोपिका भगिनी अनन्तरम् अम्ब गोपिका भगिनी बालकः विषये
कति बालकाः बालकाः सन्ति एकः बालकः अस्ति
एकः बालकः अस्ति समीचीनं
कति बालकाः सन्ति दश बालकाः सन्ति
अस्तु एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव अस्तु भगिनि नव बालकाः सन्ति समीचीनं नव बालकाः सन्ति नव बालकाः सन्ति अम्ब अम्ब यु मे बी आन् म्यूट्
I don't know where it is, so you pass it on.
Illama, yeah, so you look at the screen.
This is a screen valla black ah irukku.
Ah, sure. Okay.
Eppadi screen theriyudhu theriyaliye.
Okay, ma, we'll talk later. Ah, astho. अत्र ओके अस्तु बीना भगिनी
कति चमसाः सन्ति एकः चमसः अस्ति
समीचीन
कति चमसाः सन्ति नव चमसाः सन्ति
अस्तु भगिनि धन्यवादः अस्तु इदानीं वयं कुत्र इति पश्यामः सो अदर् एनी क्वश्चन् हौ टु आस्क् अस्तु सो कति विषये सर्वदा बहुवचनमेव द नामपदं हस् बि इन् बहुवचनं एस् वेल् एस् द क्रियापदम् ओके सपोसिङ्ग् अत्र नाट् अत्र सो अत्र बालकाः क्रीडन्ति खलु बालकाः क्रीडन्ति अस्तु अत्र बालकाः क्रीडन्ति सो हौ विल् वि आस्क् द क्वश्चन् हौ मेनि चिल्ड्रन् आर् प्लेयिङ्ग् उमा कृष्ण भगिनी
कति बालकाः बालकाः क्रीडन्ति
समीचीनं कति बालकाः क्रीडन्ति अण्ड् देन् वि डू द कौण्टिङ्ग् एकं द्वे त्रीणि चत्वारि
पञ्च
षट् बालकाः क्रीडन्ति सो षट् बालकाः क्रीडन्ति इति वयं वदामः खलु अस्तु समीचीनं अस्तु धन्यवादः भगिनि सो अग्रे एनी क्वश्चन्स् अबौट् कुत्र अस्तु सो विल् गो फार् दिस् होम्वर्क्
मेडम् ऐ एम् नारायणमूर्ति कुत्र देर् वी हेव् यु नो यु शुड् नाट् आस्क् अस्ति only santi why
for kati yeah kati we kati ask only santi
like, why not as
no that is the rule for example even in english even in english we ask only in bahuvachana
always in bahuvachana
always how many books are there even though there is only one how many books are there how many boys are there
how many means it has to be plural correct
plural yeah kati yeah good question mahodaya
thank you
dhanyavada okay
dhanyavada
so for kutra so we can try this one okay balakaah kutra santi
balakaah krinangadam
Kridangane. The num will change to ne. To show that is a place of location. That is the location. So you know, we are assigning all these endings to nouns. to show the role that that noun is taking.
Okay.
So if I say kridanganam asti, that means it is a subject. That is, we are talking about the kridanganam. Kridanganam asti. So here, the balakaha kridangane kridanti means we are assigning location to the kridanganam. So now the kridanganam has become a place, that is a place, a location. It has become a location where something is happening. Astu. Balakaha kutra asti? No. Kridangane asti. Samichina. Eshaha balakaha kutra asti? अस्तु भगिनि, एषः बालकः कुत्र अस्ति? अस्तु, एषः बालकः, वेर् इस् दिस् बाय्?
गृहे
अस्ति. बालकः गृहे अस्ति. बालिका कुत्र अस्ति?
बालिकाः गृहे अस्ति.
बालिका अपि गृहे एव. बोत् इन् अण्ड् आन् वि ट्रीट् इट् द सेम् वे. इन् आर् आन् इट् इस् गृहे एव. गृहे गृहे वदतु महोदय.
विल् आन् कम् इन् एस् गृहे उपरि अस्ति.
सो वि आर् गोयिङ्ग् टु लर्न् दट् लेटर्. गृहस्य उपरि, यस्. गृहस्य उपरि. सो बिफोर् वि आर् वेरि वेग्. अत्र तत्र अन्यत्र लैक् दट् वेरि वेग्. नौ वि आर् कमिङ्ग् क्लोसर्. इन् आर् आन् क्लोसर्.
राधिका भगिनी, एकः प्रश्नः अस्ति. फार् स्त्रीलिङ्ग, won't graham change to grahayam?
No.
Stilling we say yama, and for pulling it is a.
Na bagini, for pullinga and napumsakalinga a.
Okay. So graha is okay.
Grihe eva. Atre, you will see the yam now. You will see the. Okay, people who are not talking, please mute. ओके, धन्यवादः. अस्तु, सविता भगिनी, रम्या भगिनी, आर् यु हियर्?
हा भगिनी.
अस्तु, बालकः कुत्र अस्ति?
बालकः, ऐ कान्ट् सी द पिक्चर् भगिनी.
ओके, ही इस् सिट्टिङ्ग् आन् अ सूट्केस्.
बालकः स्यूते अस्ति.
सो सूट्केस् यानपेटिकायाम्
अस्ति.
यानपेटिकायाम्. ही इस् आन्. ओके, वेरि वेरि नाय्सी. ऐ डोण्ट् नो वाट् टु डु. केट्की भगिनी, ऐ एम् गोयिङ्ग् टु म्यूट् यू. हू एल्स् इस् अन्म्यूटेड्? रम्या भगिनी इस् टाकिङ्ग्. अस्तु. बालकः पेटिकायाम् अस्ति. आन् द पेटिका. ओके, अस्तु, समीचीनं भगिनी. सो रम्या भगिनी, वस्त्राणि कुत्र सन्ति? सो दर् आर् क्लोत्स् इन् द सूट्केस्.
वस्त्राणि सेम् पेटिका, रैट्?
यानपेटिका.
वस्त्राणि यानपेटिकायां सन्ति.
समीचीन. सो बालकः यानपेटिकायाम् अस्ति, दट् इस् आन्. वस्त्राणि यानपेटिकायां, दिस् इस् इन्. अस्तु, समीचीनं भगिनि. सविता भगिनी अस्ति वा? सविता भगिनी अस्तु. परमेश्वर महोदय फलं फलं कुत्र अस्ति?
बलं
पेटिकायाम् अस्ति. अस्तु नारायणमूर्तिमहोदय फलानि कुत्र सन्ति?
फलानि पेटिकायां सन्ति.
पेटिकायां. बोत् आर् पेटिकायां?
वन्
इस् आन् वन् इस् इन्. अस्तु
पेटिकायां सन्ति.
अस्तु अत्र उमारेड्डि भगिनी द्राक्षाफलानि ओके द फस्ट् वन् इस् इन् द कप् द्राक्षाफलानि कुत्र सन्ति?
द्राक्षाफलानि बवल् अन्ते
चषकः इति वदतु. चषकः द्राक्षाफलानि
द्राक्षाफलानि चषकायाम् अस्ति.
सो अत्र चषकः इति पुल्लिङ्ग.
ओ चषकः. द्राक्षाया द्राक्षाफलानि द्राक्षाफलानि
चषके सन्ति. चषके सन्ति
भगिनि.
Chashake
santi. I thought chashakaha was called that tumbler. The glass used to be called chashakaha.
Okay, so if you want
also called the same.
Yeah, if you want a new word, kamsaha. Kamsaha. A bowl is called kamsaha.
Because kamsaha. Remember somewhere else we spoke about tumbler as what we call it as chashakaha. That's what I remember.
Yeah. I mean it is a cup. This you can use it as a cup or a bowl.
कंसने
ओके कंसे कंसे सन्ति
कंसे सन्ति
कंसः कंसे चषकः चषके स्यूतः स्यूते ओके. So, so anything ending in aha, you go for a like that. Astu. Saundaram Bhagini, so in the next picture. Okay, who are not talking, please mute. Okay, people who are not talking, please mute. Astu. Atra.
Draksha palani, vrikshe santi.
Vrikshe santi. Supposing I say that this is a lata. These are all vines, right?
Latayam.
Latayam.
Draksha palani latayam santi.
Latayam santi. So this is in, that is on. Avagatam. This is in, that is on. Astu. Srinivasa Mahodaya. Brahmaraha kutra asti?
Brahmaraha.
भ्रमरः पुष्पे अस्ति. अस्तु नारायणमूर्तिमहोदय अत्र पुष्पाणि कुत्र सन्ति?
पुष्पाणि लतायां सन्ति.
लतायां सन्ति. अस्तु परमेश्वर महोदय लता कुत्र अस्ति? लता परमेश्वर महोदय अस्ति वा? अस्तु सविता भगिनी.
यस् भगिनि.
लता कुत्र अस्ति?
लता गृहे अस्ति.
गृहे अस्ति. सो इन् आर् आन् ओके. अवगतं खलु? एव्रिवन् अण्डर्स्टाण्ड् दट् खलु? अस्तु अत्र मी हू वाण्ट्स् टु ट्रै समथिङ्ग् डिफ्रेण्ट्? हू वाण्ट्स् टु गेट् अनदर् चान्स्? अम्ब Amba, you want to try this? Meenaha kutra santi?
Meenaha nadyam santi.
Meenaha nadyam santi. Okay, now you go back to mute. Please mute. Okay. Meenaha nadyam santi. Astu. Nauka kutra asti? Nauka kutra asti? Nauka. Nauka means boat.
Nauka jalam jalayam asti.
No, if you say jalam, you say jale. So if you say nadi, you say nadyam. So what do you want to say? Nadyam or jale?
Nadyam.
Nauka nadyam asti. Samichena. Nauka nadyam asti. Okay. Now for somebody else. Balakah kutra santi. Balakah kutra santi. Who wants to try this? Balakah kutra santi.
Could I try it?
Okay. One person.
Naukayam santi.
Balakaha naukayam santi.
Santi ganam asti.
No. Balakaha. Bahuvachanam kalo. Balakaha. Balakaha naukayam santi. Okay. Here. Balakaha kutra asti.
Balakah
kutra asti?
Nadine asti.
Balakah nauke asti.
Nauka or nadi, they are both strilinga, so the ending has to be yam. Balakah kutra asti?
Balakah nadyam asti.
Balakah pratamam naukayam asti.
Naukayam asti.
Balakah naukayam asti. Naukayam asti. Nauka kutra asti.
Krishna Bhagini.
Uma Krishna Bhagini va?
Bhagini. Sagari.
Sagari Bhagini. Samichena.
I just wanted to ask, when we say balakah naukayam, then it is anuswara, because it's santi. And when we, it is balakah naukayam asti, then we write half ma, right? Because vowel following?
Yeah, correct.
Is that correct? Okay.
I mean, so we don't call it the half ma, we call it the halantama, the ma.
Halantama.
Halanta, Asta. Asta. अस्तु महोदय बालकः नौकायाम् अस्ति नौका कुत्र अस्ति नौका
नद्याम्
अस्ति नौका नद्याम् अस्ति ओके वन् फैनल् वन् ओके हू वाण्ट्स् टु ट्रै दिस् वन्
भगिनि
वदतु जलं कुत्र अस्ति
जलं कूप्याम् अस्ति
कूप्याम् अस्ति ओके अत्र जलं कुत्र अस्ति चषकः जलं कुत्र अस्ति
जलं चषके अस्ति
चषके अस्ति डिड् एव्रिबडि अण्डर्स्टाण्ड् देट् पुल्लिङ्ग नपुंसकलिङ्ग ए एण्डिङ्ग् फार् आल् स्त्रीलिङ्ग याम् एण्डिङ्ग् सर्वत्र तथा एव ओके एनि क्वश्चन्स् No. Okay. So this abhavat. So this is the same thing, Kalo. Do you want to go through this or do we do something new? And then we'll come to this. What do you say? Mama putraha putra.
Something new.
Yeah. So this we can figure out, right? A ending is yam. E ending yam. Aha or am a astu
bhagini
vadatu bhagini
eka prashna aham sharda
vadatu bhagini
in homework sheet tasya karyanam does the tasya also change tasya karyane
no no no
tasya karyani
tasya karyani so each word has its own place okay so only the karyanam will change so the tasya it is just referring to how they are connected like aham and karyanam how we are connected yeah mama put I'm sorry putraha and the karyanam how they are connected so it's saying the karyanam belongs to him that's all so each word has its responsibility astu agre gachhamah tavat please everybody go back to mute astu so if you want any corrections done you send it to me otherwise it's simple okay so now we go to kada kada means when kada means when so atra so we start with kaha samayah idanim here in New York ashtavadanam ashtavadanam I'm giving approximate time ashtavadanam so navavadane aham gachami okay so I'll give other examples idanim shadvadanam sardha shadvadane aham khadami idanim panchavadanam padona panchavadane aham likitavati okay forget that one sapada panchavadane aham khadami idanim dashavadanam sardha ekadashavadane aham uttishtami okay so there is a difference between vadanam and vadane so what is the difference between vadanam and vadane when we say
vadana
vadatu mahodaya
vadanam is the time vadane is at that time
exactly so when we are doing some action then we say vadane at that time okay so we go back to abhyasa pustakam kada is the question bhavan kada uttishtati uttishtati means you wake up bhavan kada uttishtati that's the question so the answer is aham panchavadane uttishtami idani chaturvadanam aham panchavadane uttishtami bhavan kada vidyalayam gachati what will be the answer gopika bagini
aham
bhavati kada vidyalayam gachati
aham
bagini
gopika bagini vadatu bhavati kada vidyalayam gachati
aham अष्टवादने विद्यालयं गच्छामि
अष्टवादने विद्यालयं गच्छामि सो द वादनम विल चेंज टू वादने
वादने
अस्तु सूर्योदयः कदा भवति सूर्योदयः कदा भवति शारदा भगिनी सूर्योदयः कदा भवति
सूर्योदयः पञ्चवादने
पञ्चवादने भवति समीचीनं केतकि भगिनी भवती कदा क्रीडति
अहं सप्तवादने क्रीडन्ति
क्रीडामि क्रीडामि समीचीनं. सागरी भगिनी, भवती कदा पठति?
अहं पञ्चवादने पठामि.
पञ्चवादने पठति भवति. अस्तु, समीचीनं.
Could I ask a very quick question? If you wanted to say something like 1, 2, 3 or 4 o'clock, would you say ekavadane or do you need to conjugate it?
Ekavadane.
Okay, thank you.
So vadanam will change to vadane, that's all.
Okay, thank you.
So we say dashadika dvivadane aham kimapi karomi, like that. अस्तु, सो वादनं विल् चेञ्ज् टु वादने. ओके, दट्स् दि ओन्ली डिफ्रेन्स्. सपोसिङ्ग् ऐ वाण्ट् टु से अट् 8:45 ऐ गो टु स्लीप्, कथं वदति गोपिका भगिनी अभवत्? बीना भगिनी, ओ बीना भगिनी, हौ विल् यु से 8:45 ऐ गो टु स्लीप्?
अहं padona nava vadane go to sleep. I don't know.
Nidrami. So this will be a combination of the time as well as the kriya padam together. Okay, likami, khadami or likati, nilati, all that. So that will be a combination of both the time as well as the kriya. Astu. Uma Reddy Bhagini, bhavati kada uttishtati?
Bhagini?
Bhavati kada uttishtati?
Bhavati?
When do you wake up? Enni gantiku wake up?
Ardhamayinda.
Aham?
Aham panchavadane.
Panchavadane
uttishtati.
Uttishtami. पञ्चवादने उत्तिष्ठामि. अस्तु, समीचीनं. अस्तु, रम्या भगिनी, भवती कदा पाकं करोति?
पाकं मीनिङ्ग् भगिनी?
कुकिङ्ग् पचति और पाकं पचति.
अहं दशवादने पाकं करोमि.
पाकं करोमि, समीचीनं. अस्तु, सविता भगिनी अस्ति वा?
अस्ति,
समीचीनम् अस्ति. अस्मि. भवती कदा दूरदर्शनं पश्यति?
अहं अष्टवादने दूरदर्शनं पश्यामि.
दूरदर्शनं पश्यामि. सो नौ वी विल् एड् सम् मोर् थिङ्ग्स्. ओके, सायङ्कालः विल् बिकम् सायङ्काले. सीता सायङ्काले नृत्याभ्यासं करोति, नृत्य अभ्यासं, डान्स् प्राक्टिस्. सीता सायङ्काले नृत्याभ्यासं करोति. सो वाट् विल् बी द क्वश्चन्? परमेश्वर महोदय,
सीता कति कदा नित्याभ्यासं करोति?
समीचीनं. सीता कदा नित्याभ्यासं करोति?
सीता सायङ्काले नित्याभ्यासं करोति.
So So, Mahodaya, can you add a time to it? Sita?
Sita, Sayangale, Pancham, what is the Ganda?
Vadane.
Panchavadane, Nityabhyasam Karoti.
Nr. It's actually a nr. Okay, nr.
Nrityabhyasam
Karoti. Samichina Mahodaya. Astu. Uma Reddy Bhagini?
Yes, Bhagini.
Venkatesha.
Bhagini, can you make it a little bigger, please?
Astu.
Venkatesha,
Shadvadane Yogasanam Karoti. What will be the question? Prashnaha Kaha?
Venkatesha Kada?
No. Venkatesha Kada?
Kada Yogasanam Karoti.
Samishinam. Kada Yogasanam Karoti. So, can you say.
Karoti same untadanata. Karoti same Karoti.
Same Karoti Eva. So, the only thing that changes is Shadvadane is the answer. The question will be Kada.
Kada.
The question will be Kada. And then Sayankale Shadvadane. So, can you add Venkatesh Sayankale Yoga Sayankale? I gave the answer. Sayankale Shadvadane Yogasanam Karoti. Astu. Saundaram Bhagini. So, Ramya Bhagini gave the same answer. Dashavadane Pakam Karoti. Interesting. Saundaram Bhagini. So, we have this answer. Mata Dashavadane Pakam Karoti. It's very noisy. I don't know whose that is. Astu. Saundaram Bhagini. Punaha unmute Karoti.
Mata Dashavadane Pakam Karoti. Mata Kada Pakam Karoti.
Kada Pakam Karoti. So can you add she cooks in the morning? Morning means Pratakale.
Mata Pratakale. Pratakale. Ashtavadane Pakam Karoti.
Samichinam. Pratakale Ashtavadane Karoti. Samichinam. Astu. Srinivasa Mahodaya. Sa Pratakale Pujam Karoti. Sa Pratakale Pujam Karoti. Can you add a time to it?
Okay. Sa Pratakale Sapada Ashtavadane Pujam Karoti.
Sapada Ashtavadane Pujam Karoti. Sarve Avagachantiva? Did everyone understand? Pratakale Sapada. Okay, so what will be the question, Mahodaya?
Yes, Bhagini.
Sa Prada Kale Kim Karoti. Kada Karoti.
Sa Kada Pujam Karoti. So we can ask many questions. Ka Pujam Karoti, all the questions. But now it is Kada. Sa Kada Pujam Karoti, Prata Kale, Sapada, Ashtavadane. So we can give many answers for Kada. Right? Pratakale, Sayankale. Now we have Madhyahne. Madhyahne is also there. Narayana Murthy Mahodaya. Bhavan Kada Bhojanam Karoti?
Aham. Dasha Bhaje Bhojanam.
Dasha Vadane
Bhojanam Karomi.
Bhojanam karomi. Supposing I want you to add afternoon. Afternoon 2 o'clock.
Aham madhyanhe. Ekam dve vadane.
Dvi vadane. Dvi. Dvi.
Dvi vadane. Dvi vadane. Dvi vadane. Bhojanam karomi.
Samichina. Dvi vadane bhojanam karomi. Madhyahne. So.
Madhyahne. Dvivadane bhojanam karomi.
Aham madhyahne bhojanam karomi ante question aham e vastunda madam?
No. Bhavan athava bhavati. Bhavan kada bhojanam karoti? Samichinam bhagini.
Excuse me. What do you say for in the night? Yatre.
So Ratri is Ikaranta, right? So we say Ratrau.
Oh,
Ratrau. Good okay, question, Nadia. Ratrau. Samishina. Ratrihi is Ikaranta, so we say Au, Ratrau.
Ratrau, right. Thank you.
Supposing we want to say on Amavasa, don't eat rice.
Amavasa Ratrau. Aham.
So Amavasya is A ending. Amavasya.
Amavasya is Ratrau.
So we say Amavasyam.
Okay, sorry. Amavasyam Ratrau Aham Bhojanam Nak Karoti.
Karomi. Samichina. Annam na khadami.
Annam na khayami.
Bhagini, for Nadi, we are telling Nadyam, no? Ratri are not possible.
No, this is... that's another very good question. But Ratrihi is a Hraswa.
Okay.
It is a short Ikara.
Yeah,
so, the rules are different. Hmm? Good question.
Bhagini,
what
is the word that you used?
Hraswa. Hraswa Dirgha. Same thing.
Is it possible for you to write it and show?
Sure. Can you see this screen?
Yes.
Okay.
Bhagini.
Astu. Ha, ra, a, is, va, hrasva.
Can you make it bigger, please?
Yes.
That is ra, is it? Ra.
Yeah, so this is a combination of ha, ra, a.
Hrasva.
And then sa, and then va, hrasva.
Dhanyavada.
Astu. So the same thing with Ekadashi. So this is Ekadashi. So how will we say on Ekadashi?
Ekadashyam.
Ekadashyam. Amavasyam. Yam. Okay. So, do you see...
Bhagini, what will we say for Paurnami?
Paurnamya. Actually, we say Purnima.
Purnima, huh?
Purnimayam.
Okay, Bhagini. Dhaniwad.
Astu. Purnimayam. So, you see, for Kada and Kutra, it's the same ending, hello? Pratakalaha became Pratakale. Vadanam is Napumsakalingam, like Griham, it became Grihe. Okay, so for Kutra and Kada, it is the same ending.
So we are using Saptami, right?
Saptami, I was just going to say Saptami. So for Saptami, for location and time, we go to Saptami. For to express Sambandha, we go to Shashti. That is Asya and Yaha. Okay, any questions?
Bhagini?
Vadatu Bhagini.
I have a sentence, shall I say it, Bhagini?
Vadatu, nischayana.
Amavasyam. Vayam Chandra na darshanam kurmaha.
Samichena. Chandram. So we say Chandram. We haven't learnt that yet. Chandram na
darshanam kurmaha.
Astu. So if you say darshanam, we say chandrasya darshanam.
Chandrasya darshanam.
We haven't learned that, but chandrasya darshanam na kurmaha. Atava chandram na pashyamaha. Samichinam bhagine uttamam. Anybody else have any other sentence? Anybody want to say anything? If not?
What do you say? Ekadashyam. Ekadashyam. And if I want to use Ekadashyam, Chandra, Purnima, no, Ekadashyam, Chandra, na,
Pashyamaha. Astu.
भगिनी एकादश्यां वयं उपवासं कुर्मः.
समीचीनम्. एकादश्यां वयं उपवासं कुर्मः. समीचीनम्. अस्तु. सो वादनम् इस् नपुंसकलिङ्ग. सो इट् बिकेम् वादने. सो प्रातःकालः, मध्याह्नः, सायङ्कालः, पुल्लिङ्ग. Therefore, it is A ending also. Amavasya, Ekadashi, A and E ending, so it becomes Yam. So, Ratrihi is Hrasva, so it is Ratrau. Okay, any questions? Okay, so I am moving forward.
Bhagini?
Vadatu, Bhagini.
If I say Pratah Kale Shadavadane, I should say both in...
Yes.
Pratah Kale Shadavadane.
So, Atra, let me tell you something about the Uchcharanam. So, we don't say the Visarga which is in the middle. We just say Pratah Kale.
Pratah Kale.
Pratah Kale.
धन्यवाद.
बहिनी बहिनी उमा, व्हाट डू यू से फॉर 12 नून?
वी जस्ट से मध्याह्ने द्वादशवादने एव.
ओके ओके, यू हैव टू से दैट. धन्यवाद
बहिनी.
बहिनी व्हाट इज फॉर टुमारो?
श्वः. या, आई एम कमिंग टू दैट नाउ. परफेक्ट
बहिनी.
परफेक्ट क्वेश्चन. वदतु बहिनी.
Pratah Kale will get Pratah, the F for
Ucharan. It will become
Pratah Kale. Pratah Kale. If I say Pratah Kale, it's not correct?
Yeah, well, if you know you have to pronounce, you pronounce Pratah Kale.
Okay.
Astu. So, Atra, we have, do all of you know the days of the week? Adya, Kavasaraha. Adya. So, we have, Adya, Adya means today.
Today
is
Sunday.
Friday.
Shukravasara. Adya Shukravasara. And then for yesterday, we say Hyaha. For day before yesterday, Parahyaha. The one before, Praparahyaha. Okay? Hyaha, Parahyaha, Praparahyaha.
So, Praparahyaha Mangalavaraha.
समीचीनम्. अद्य शुक्रवासरः, ह्यः कः वासरः? गुरुवासरः. यस्टर्डे गुरुवासरः, ह्यः गुरुवासरः. परह्यः कः वासरः? अहं लिखामि अत्र.
Bhagini, it means the days of the weeks are always shown as a pullingam because all are coming as...
Correct. So, let me start with Sunday, Bhanu. Bhanu Vasarah, Soma Vasarah, after that comes
Mangala
Vasarah, Buddha Vasarah. Okay, so there are other names, hello? Bhanu, Atava, Ravi.
Ravi Vara.
And then we call Adi. So there are many names for it. For Soma, what did you say, Bhagini?
Monday. Not Soma, Mangala, Bhoma Vara.
Bhauma Vasaraha, yeah. So, for Soma Vasaraha, we also call Indu Vasaraha. So, for Mangala Vasaraha, Bhauma Vasaraha. For Buddha Vasaraha, Saumya Vasaraha. So when I do this one, okay. Saumya Vasaraha. So for Guru?
Brihaspati.
Brihaspati.
Brihaspati Vasaraha.
Brihaspati, but I haven't heard this too much. Shukra Vasaraha.
Vandi.
Bhrigu Vasaraha. And then for Saturday?
Shani.
Shani Vasaraha. Sira Vasaraha.
Sira Vasaraha. Asta. And then we come to Bhanu Vasaraha. Okay. I hope you can see it. Okay. So now we have Bhanu, Soma, Mangala, Buddha. Okay. Adya Shukra Vasaraha. Hyaha Kaha Vasaraha.
Kaha Guru Vasaraha.
Guru Vasaraha. Parashyaha Kaha Vasaraha.
Parashyaha
Buddha Vasaraha. Parashyaha Buddha Vasaraha. Samichena. Praparashyaha Kaha Vasaraha. Now we go to Shwaha Parashwaha Praparashwaha. So let's say to Adya Shukravasaraha. Shwaha Kaha Vasaraha.
Shani Vasaraha.
Parashwaha Kaha Vasaraha. Bhanu Vasaraha. Samichana. Praparashwaha Kaha Vasaraha.
Soma Vasaraha.
Praparashwaha Soma Vasaraha. Okay. So, astu. Sarve avagachanti che? Can I go forward?
Yeah. Yes, astu.
Balgini, can you increase the font little?
Yes. So now we come to... Okay, I'm going to unmute everybody again. So, astu. So, atra, we will come to the next part of expressing time. Okay? So, if we look at the calendar, are you all familiar with Pratama, Dvitiya, Tritiya, Chaturthi?
panchami,
shashti, saptami, ashtami, navami, dashami,
dashami, ekadashi.
ekadashi,
dvadashi,
trayodashi, chaturdashi, amavasya and
pratama.
Purnima, we see it in the calendar, okay? But also in the calendar, they express Tithi. So everything is in Strilinga. Like Pratama, Strilinga. Dvitiya, Strilinga. Why? Because they are talking about Tithi. Tithi is also Strilinga. Like Ratrihi is Tithihi. Short, Hrasva, Tithihi. Okay. No, actually it is Tithi. Okay, Tithi. So if I have a doubt, I go to the Padakosha. Tithi. So I look at Tithi. So Tithi is Strilinga, the date. Okay. So it is expressed in Tithi. So Pratama, Dvitiya, Tritiya, Chaturthi, Panchami, Shashti, like that. So here we are continuing. We didn't stop with Chaturdashi. Okay. Here we have Shodasha. Shodasha. Then we have Dinankaha. Dinankaha means the date. Today is the 16th day. Dinankaha. Panchadasha dinankaha kada? Panchadasha dinankaha hyaha. So they have given the answer here. Panchadasha dinankaha kada? Panchadasha dinankaha hyaha. Okay. So one thing about adhya, hyaha, parahyaha, praprahyaha, they never change. Okay. So they never change. So the words that never change are called avyayani, avyayam. They never change. So we don't say, tomorrow I will study. So we don't say, shvahe aham patami. That is wrong. Okay? Shvaha, pratakale, saptavadane, everything can change to a ending. But never shvaha. Okay? Same thing goes for hyaha or parahyaha, adye. We cannot say adye. You can say adya saptavadane agachami. You can never say adye saptavadane. That is wrong. Okay? Astu. So atra adya somavasaraha mangalavasaraha kada. Who wants to answer that? Sharada Bhagini? Adya somavasaraha mangalavasaraha kada?
Mangalavasaraha shvaha.
Shvaha. Samichina. You go back to the Astu. Okay. Amba, do you want to answer this? Adya chatur vimshati tama dinankaha. Vimshati tama dinankaha kada? Astu. Sagari Bhagini?
Bhagini, can I answer?
I'm Bhagini.
Okay.
Yeah.
I'm a little confused about this.
Parashvaha, right?
Yeah, parashvaha.
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 Okay. 24th, parashvaha. 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 Yeah. So, another thing I need to point out is for the words after 20 and after, you have to add the word tama to it. Okay? So we have ekadashi, dvadashi, त्रयोदशी चतुर्दशी पञ्चदशी षोडशी ओके अण्ड् देन् सप्तदशी अष्टादशी नवदशी बट् विंशतिः ओके सपोसिङ्ग् ऐ वाण्ट् टु से आन् द 19th ऐ एम् इन् इण्डिया 19th देन् ऐ से हौ विल् वि से देट् नवदश दिनाङ्के वसामि स्मः समीचीनम् अम्ब वसामि इस् टु लिव् ओके सपोसिङ्ग् ऐ वाण्ट् टु से ऐ विल् बि देर् ऐ एम् देर् अहं नवदशदिनाङ्के भारते अस्मि ओके ऐ एम् देर् इन् इण्डिया आन् द 19th अहं अहं नवदशदिनाङ्के सो दिनाङ्कः विल् बिकम् दिनाङ्के
नवदशदिनाङ्के
भारतदेशे अस्मि ऐ एम् देर् सो एक्चुअली ऐ शुड् से विल् बि देर् बट् अस्मि But if I change it to 20th, I will say, Aham Vimshati Tama Dinanke. Okay, so after the number 20, it will change to Tama, Vimshati Tama Dinanke.
For all numbers after 20?
Yes, for all numbers after 20. Supposing today is the 17th, right? So I will say 17th, we have the class, right? So next class is on the 24th. Hello? How will we say on the 24th? Next class is there. चतुर्विंशति तम दिनाङ्के तम दिनाङ्के वर्गः भवति
पुनः वर्गः
चतुर्विंशति तम दिनाङ्के ओके देट् मीन्स् ऐ एम् सेङ्ग् आन् द 24th we will have our class so instead of future tense I'm putting everything in present tense चतुर्विंशति तम दिनाङ्के अस्माकं वर्गः भवति ओके सपोजिङ्ग् ऐ वाण्ट् टु से टुडे इस् द 23rd आन् 24th वि विल् मीट्
त्रयोविंशति तम दिनाङ्के
त्रयोविंशतितमदिनाङ्कः ओके इट्स् ओन्लि अ स्टेट्मेण्ट् सो आन् द 24th वि विल् मीट् वि मीट्
चतुर्विंशतितमदिनाङ्के वयं मिलामः
वयं मिलामः वयं पश्यामः वि विल् सी लैक् देट् ओके
वयं पठ्यामः देट् आल्सो विल् स्टडि टुगेदर् मीन्स्
नो 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 वि विल् मीट् मीन्स् मिलामः एव मिलामः एव वयं मिलामः
विल् स्टडि मीन्स्
वयं पठामः
पठामः
okay supposing I want to say today is the 18th on the 21st I'll watch a movie adya
ashtadash
ashtadash dinankah
dinankah
एकविंशति
समदिनाङ्के
एकविंशतितमदिनाङ्के
वयं मिलामः
चलनचित्रं पश्यामः लैक्
दश्यामः
सो वाट् एवर् दि आक्ट् इस् यु से दि आक्ट् सो वेन् यु सेयिङ्ग् सम् दट् यु आर् डूयिङ्ग् सम्थिङ्ग् इट् विल् टेक् द ए फार्म् आर् दि याम् फार्म् ओके practices asto so for homework we have studied like four types of questions right kim kutra kati and kada so I'll give you all these statements you have to write the correct question okay उदाहरणार्थम् अमेरिकायां विंशतिः राज्याः सन्ति ओके विंशतिः राज्याः सन्ति दट् मीन्स् 50 स्टेट्स् आर् देर् शारदा भगिनी वाट् विल् बि द क्वश्चन्
कति अमेरिकायां कति राज्याः सन्ति
अमेरिकायां कति राज्याः सन्ति और् अमेरिकदेशे कति राज्याः सन्ति अस्तु केतकी भगिनी उत्तर अमेरिकायां ओके विल् गो टु द नेक्स्ट् वन् अद्य भानुवासरः श्वः मङ्गलवासरः ओके सो हौ विल् यु आस्क् द क्वश्चन् फार् श्वः मङ्गलवासरः कदा
कदा
ओके अण्ड् देन् वि गेट् दि आन्सर् श्वः मङ्गलवासरः
Can we say shvaha kada?
Shvaha kaha vasara. Okay, so at that time you have to say kaha.
Shvaha kaha vasara.
You have to say shvaha kaha vasara.
Okay. What be?
Yeah, because vasaraha is pullinga, kalo. So vasaraha is pullinga. So you have to ask kaha vasara. अवगतम्
इफ् ऐ हेव् टु से वाट् डे इस् टुमारो दट्स् एक्साक्ट् ट्रान्स्लेशन्
यस् श्वः कः वासरः
सो वेन् इस् ट्यूस्डे देट् विल् आन्सर् मङ्गलवासरः कदा
कदा समीचीनम्
ओके
ओके
थेङ्क् यू
अस्तु सो इफ् ऐ हेव् this answer samskrita kaksha shukravasare prachalati means it takes place samskrita kaksha shukravasare prachalati okay what will be the question gopika bagini after that amba gopika bagini what will be the question samskrita kaksha shukravasare prachalati
कदा संस्कृत कक्षा
प्रचलति कदा संस्कृतप्रक्षा प्रचलति संस्कृतकक्षा शुक्रवासरे प्रचलति ओके अस्तु ओके नौ अम्ब नौ यु केन् अन्म्यूट् अम्ब ओके संस्कृतकक्षा विद्यालये प्रचलति संस्कृतकक्षा विद्यालये प्रचलति
What will be the question?
Vidyalaye kada prachalati?
Vidyalaye shukravasare prachalati. Okay, astu. Supposing I say Sanskrita kaksha vidyalaye prachalati. So to get the answer vidyalaye,
Sanskritabhasi kada prachalati.
Kada prachalati shukravasare prachalati. To get the location I say kutra. Okay, to get the location I say kutra. To get the time I say kada. Astu. Dhanyavad. Astu. Deepshika Bhagini.
Yes, Bhagini.
Astu. Vakye dasha padani santi. Vakye dasha padani santi. What will be the question to get dasha?
Vakye kati.
Vakye santi. Kati phalani santi. Samichina. Vakye kati phalani santi. Astu. So, dhanyavada bhagini. Veena bhagini. Vakye dasha phalani, dasha padani santi. So, what will get me the answer, vakye?
It can't be kutra.
Kutra. Samichina. Kutra. Kutra. Dashapadani santi, vakye dashapadani santi. Samichinam bhagini.
Thank you.
Place annadu kada madam.
Astu. Place, time, same ending. A iti ending. Place asti chet prashnaha kutra. Time ante prashnaha kada. Numbers ante prashnaha kati.
Kati.
Yavaru emi iti asti chet, then it is kaha or ka or kim or the bahu vachanam of them. Okay. So, for who or what we say?
Bhagini prashnaha.
Vadatu bhagini.
Bhagini say.
Yeah, I'm repeating now. So, for if the answer is who or what, then the question is kim or its variations. What are the variations for kim?
Kaha kauki, kauki,
kauke, kaha,
kim ke kani.
Samichin. So, all these are included in Kim. Okay? Okay. So, to get the location, we say, the question is Kutra.
Yeah. Asti.
So, Bhagini, you have to say Astu. Astu.
Astu.
So, to get how many, you ask the question Kati. To ask when, you ask the question kada. Kada, kati, kutra, kim.
Astu bhagini.
Astu. Any other question?
No, not yet.
Astu. Anybody else have a question? So we can do one thing. One person will say the sentence. And you quiz somebody else, okay? You give it to the class, somebody will answer. For example, I can say, Haste Pancha Anguliyaha Santi. Okay, if I say, Haste Pancha Anguliyaha Santi. What would be the question if I want to ask how many?
Pancha
Anguliyaha Santi.
अङ्गुल्यानि
सन्ति
कति अङ्गुल्यः सन्ति ओके सपोजिङ्ग् ऐ वाण्ट् टु गेट् दि आन्सर् हस्ते वाट् विल् बि द क्वश्चन्
कुत्र अङ्गुल्यः कुत्र सन्ति
कुत्र सन्ति कुत्र सन्ति ओके ओके So let me ask the question, okay? Savita Bhagini, supposing I want to ask, supposing I make a statement first, huh? Mandire dasha archakaha santi. अर्चकाः सन्ति
मन्दिरे ओके
मन्दिरे दश अर्चकाः सन्ति ऐ वाण्ट् टु आन्सर् द क्वश्चन् मन्दिरे
कुत्र दश अर्चकाः सन्ति
समीचीनं भगिनि सो वि गोट् परमेश्वर महोदय इफ् ऐ वाण्ट् टु आन्सर् द क्वश्चन् इफ् ऐ वाण्ट् टु आस्क् द क्वश्चन् फार् दश
कति
ओके अस्तु कति अस्तु एनिबडी एल्स् वाण्ट् टु आन्सर् अस्तु
आं भगिनि आं भगिनि
ओके सो टु पीपल् त्री पीपल् अस्तु प्रथमं उमा रेड्डि भगिनि वा अस्तु इफ् ऐ वाण्ट् टु से बालकाः दशवादने क्रीडाङ्गणे क्रीडन्ति बालकाः दशवादने क्रीडाङ्गणे क्रीडन्ति दशवादने इति उत्तरम् अस्ति चेत् प्रश्नः कः उमा रेड्डि भगिनि दशवादने
कदा
समीचीनं भगिनि द नेक्स्ट् पर्सन् क्रीडाङ्गणे इति उत्तरमस्ति चेत् प्रश्नः कः
कुत्र
समीचीनं ओके द नेक्स्ट् पर्सन् बालकाः इति प्रश्नः उत्तरं चेत् प्रश्नः कः किम् इति नपुंसकलिङ्ग एकवचनं दिस् इस् द हार्ड् पार्ट्
भगिनी केन् यू रिपीट् द क्वश्चन् प्लीज़्
अस्तु बालकाः दशवादने क्रीडाङ्गणे क्रीडन्ति बालकाः इस् द उत्तरं प्रश्नः कः कः ओके भगिनि कः इति लिङ्गं समीचीनं पुल्लिङ्गः बालकाः पुल्लिङ्गः कः इति ओके बट् कः इति एकवचनं के समीचीनं के दशवादने क्रीडाङ्गणे क्रीडन्ति बालकाः अस्तु सो लैक् दट् एनिबडी एल्स् वाण्ट् टु आस्क् आर् वी केन् जस्ट् क्लोस् द
भगिनि लास्ट् सेक्षन् ऐ हाव् अ डौट् प्रश्न
पृच्छतु भगिनि पृच्छतु
Can you say once again the meaning, exact word for the praparaha, parahvaha?
Parahyahava, astu.
And one more example for avyayam also.
Astu. So all this is in the Abhyasa Pustaka. Adhya, hyaha, parahyaha, praparahyaha. So this goes backwards. Yesterday, day before yesterday, the day before yesterday. So, eva meva, we have shvaha, parashvaha, praparashvaha. Tomorrow, day after tomorrow, the day after tomorrow. Okay, so all these are avyayams. Avyayams are words that never changes. For example, kutra, kada, kati, they never change. But kim changes. It becomes kaha or ke or kau, like that. So things that change are not avyaya. For example, Bhanuvasaraha changes. It will become Bhanuvasare. So Bhanuvasaraha is not an avyayam. But adhya is an avyayam. It never changes.
Thank you, Bhagini.
Astu. Any other questions?
Bhagini.
Vadatu.
Shartayo.
Vadatu.
You said for Prathama, Dvitiya, those are first, second date.
First, second, yes.
So this Shodasha Dinankaha is 16, but you also said Dvadashi, Trayodashi, that is again 12th, 11th, 13th.
Yes, yes, yes. So I said in the calendar, Hindu calendar, we will see Pratama, Dvitiya, Tritiya, like that. So because they are talking about Titi. So the Titi is Strilinga. So everything changed to Strilinga there, Pratama. But if I, that's an excellent question, Bhagini, because I can say something now. For example, if I want to say, supposing people are in a line, okay? And then the first one is a boy. So I can say Pratamaha Balakaha.
Okay.
Pratamaha Balakaha. Supposing I want to say the third girl, so they are lining up in two different lines, okay? Supposing I want to say the first girl, how will I say that?
Pratama Balika.
Samichena. Pratama Balika. If I want to say fifth book,
Panchamaha Pustaka.
Panchamam pustakam. If I want to say seventh boy.
Saptamam. Balaka.
Saptamah balakah.
Saptamam.
Bhagini. Vadatu Bhagini.
Numbers after 4, would it
change? 4, you said, won't change.
Till 4.
Good question. That is also a very good question. If I want to say 7 boys are there, then I say Sapta Balakaha Santi. Okay? I say Sapta Balaka. It doesn't change. Yes, you are right. After 4, it doesn't change. Pancha Balakaha Santi. But for 4, it becomes something else. Okay, we'll talk about that later. Yeah. So we'll take we'll look at that later. But this is not a number. Okay, this is what we call ordinals and cardinals. So these are all ordinals. So we are saying seventh something. So whatever that something is, this has to go along with it. Okay, this is an adjective. Okay, this is an adjective. It describes the noun. So what we call visheshana visheshya bhava. Yeah? So this goes along with the noun.
Okay. If I want to tell today is first.
How will you say?
Adhya Pratamaha.
Okay. So we say Adhya Pratamaha Dinankaha. Okay, Pratamaha Dinankaha.
So only when I say Titi, I say Pratama Titi.
Not Titi. If I want to say first, second, third, fourth, like that.
Tomorrow will be Shwahat. Dvitiyaha
Dinankaha. Shwaha Dvitiyaha Dinankaha. You got it.
Okay, Bhagini. Dhanyavad Bhagini.
Dhanyavad. So this is complicated, but you know, if you practice, you will get it. So I'll send you homework on this.
So So I didn't get the difference, Pagini. Today is first, and today is first day. That's the difference.
That's the difference.
So adya prathama.
No,
adya prathama dinankah.
Adya prathamah dinankah.
Okay, adya prathama.
No, so if you say adya prathama, like you're talking about the tithi. Like, you know, this is the first day after the Amavasya, like that. So when you say adya prathama, you are saying this is the day after Amavasya. That is how the calendar says it.
Okay.
Adya prathama tithi. So it's actually saying adya prathama tithi.
Okay. You know, I got it.
Yeah.
Okay.
Adya Amavasya.
Prathama dinankah
means first day.
Okay.
Supposing I want to say this is the second class. Adya dvitiyah vargah. So there is another word for class, that is kakshya. So I say adya dvitiya kakshya.
Kakshya is a big dvitiya.
Kakshya, I say dvitiya. If I say vargaha, I say dvitiya.
So vargaha and two kaksha.
Yeah.
Kaksha is the
Kakshya is Strilinga, so I say Dvitiya. Varga is Pullinga, I say Dvitiya.
I got it. Astu Bhagini.
Astu Bhagini. Somebody else have a question? Astu Tarhi Viramama. Shanti Mantram Vadamaha. Om sarve bhavantu sukhinah, sarve shantirbhutanirayah, sarve bhadraha bhadrani pashyantu, ma kashyatu samadhubhavet. Om shanti shanti shanti, hari om hari om, yoram namah hari om. बहु धन्यवादः पुनर्मिलामः
धन्यवादः
भगिनी
इफ् यु आर् नाट् डिस्कसिङ्ग् द होम् वर्क् ऐ मीन् वी डोण्ट् हेव् द टैम् देन् केन् यु जस्ट् रश् थ्रू द thing from your side so that or send a answer sheet or something where we can check.
I'll send the answer sheet. So whoever sent the answer sheet, Beena Bhagini, I think somebody sent the I'll send the answer sheet in the WhatsApp group. Okay,
thank you.
Dhanyavada.
Have a good day.
Astu Bhagini. Astu Mahodaya.